ಶಶಿಕಲಾಭ್ಯಾಂ ನಿಜ ತಪಃ ಫಲಾಭ್ಯಾಂ ಭಕ್ತೇಷು ಪ್ರಕಟಿತ ಫಲಾಭ್ಯಾಂ ಭವತು ಮೇ ಶಿವಾಭ್ಯಾಮಸ್ತೋಕತ್ರಿಭುವನ ಶಿವಾಭ್ಯಾಂ ಹೃದಿ ಪುನರ್ಭವಾಭ್ಯಾಂ ಆನಂದ ಸ್ಫುರದನುಭವಾಭ್ಯಾಂ ನತಿರಿಯಂ ಗಳಂತೀ ಶಂಭೋತ್ವಚ್ಚರಿತ ಸರಿತ ಕಿಲ್ಬಿಷರಜೋ ದಳಂತೀ ಧೀ ಕುಲ್ಯಾ ಸರಣಿಷು ಪತಂತಿ ವಿಜಯತಾ ದಿಶಂತಿ ಸಂಸಾರ ಭ್ರಮಣ ಪರಿತಾಪೋಪಶಮನ ವಸಂತಿ ಮಚ್ಚೇತೋ ಹೃದ ಭುವಿ ಶಿವಾನಂದಲಹರೀ ತ್ರೈವೇದ್ಯಂ ಹೃತ್ಯಂ ತ್ರಿಪುರಹರ ಮಾದ್ಯಂ ತ್ರಿನಯನಂ ಜಟಾಭಾರೋದಾರಂ ಚಲದುರಗಹಾರಂ ಮೃಗಧರಂ ಮಹಾದೇವಂ ದೇವಂ ಮಯಿ ಸದಯ ಭಾವಂ ಪಶುಪತಿಂ ಚಿದಾಲಂಬಂ ಸಾಂಬಂ ಶಿವಮತಿ ಬಿಡಂಬಂ ಹೃದಿ ಭಜೇ ಸಹಸ್ರಂ ವರ್ತಂತೆ ಜಗತಿ ವಿಬುಧಾಃ ಕ್ಷುದ್ರಫಲದಾ ನಮನ್ಯೇ ಸ್ವಪ್ನೇ ವಾ ತದನುಸರಣಂ ತತ್ಕೃತಫಲಂ ಹರಿಬ್ರಹ್ಮಾದೀನಾಮಪಿ ನಿಕಟಭಾಜಾಮಸುಲಭಂ ಶಿರಂ ಯಾಚೆ ಶಂಭೋ ಶಿವ ತವ ಪದಾಂಭೋಜ ಭಜನಂ ಸ್ಮೃತೌ ಶಾಸ್ತ್ರೇ ವೈದ್ಯೇ ಶಕುನ ಕವಿತಾ ಗಾನ ಫಣಿತೌ ಪುರಾಣೇ ಮಂತ್ರೇ ವಾಸ್ತುತಿ ನಟನ ಹಾಸ್ಯೇಶ್ವ ಚತುರಃ ಕಥಂ ರಾಜ್ಞಾಂ ಪ್ರೀತಿರ್ಭವತಿ ಮಯಿ ಕೋಹಂ ಪಶುಪತೇ ಪಶುಂ ಮಾಂ ಸರ್ವಜ್ಞ ಪ್ರಧಿತ ಕೃಪಯಾ ಪಾಲಯ ವಿಭೋ ಖಟೋ ವಾ ಮೃತ್ಪಿಂಡೋಪ್ಯಣುರಪಿ ಚ ಧೂಮೋಗ್ನಿರಚಲಃ ಪಟೋ ವಾ ತಂತುರ್ವಾ ಪರಿಹರತಿ ಕಿಂ ಘೋರಶಮನಂ ವೃಥಾ ಕಂಠಕ್ಷೋಭಂ ವಹಸಿ ತರಸಾ ತರ್ಕವಚಸಾ ಪದಾಂಭೋಜಂ ಶಂಭೋರ್ಭಜ ಪರಮಸೌಖ್ಯಂ ವ್ರಜ ಸುಧೀ ಮನಸ್ತೆ ಪಾದಾಬ್ಜೇ ನಿವಸತು ವಚ ಸ್ತೋತ್ರ ಫಣಿತೌ ಕರೌ ಚಾಭ್ಯರ್ಚಾಯಾಂ ಶ್ರುತಿರಪಿ ಕಥಾ ಕರ್ಣನ ವಿಧೌ ತವ ಧ್ಯಾನೆ ಬುದ್ಧಿರ್ನಯನ ಯುಗಳಂ ಮೂರ್ತಿ ವಿಭವೇ ಪರಗ್ರಂಥಾನ್ ಕೈರ್ವಾ ಪರಮ ಶಿವ ಜಾನೇ ಪರಮತಃ ಯಥಾ ಬುದ್ಧಿ ಶುಕ್ತೌ ರಜತಮಿತಿ ಕಾಚಾಶ್ಮನಿ ಮಣಿಃ ಜಲೆ ಪೈಷ್ಟೆ ಕ್ಷೀರಂ ಭವತಿ ಮೃಗತೃಷ್ಣಾಸು ಸಲಿಲಂ ತಥಾ ದೇವ ಭ್ರಾಂತ್ಯಾ ಭಜತಿ ಭವತನ್ಯಂ ಜಡಜನೋ ಮಹಾದೇವೇಶಂ ತ್ವಾಂ ಮನಸಿ ಚ ನಮತ್ವಾ ಪಶುಪತೇ ಗಭೀರೆ ಕಾಸಾರೆ ವಿಶತಿ ವಿಜನೆ ಘೋರ ವಿಪಿನೆ ವಿಶಾಲೆ ಶೈಲೆ ಚ ಭ್ರಮತಿ ಕುಸುಮಾರ್ಥಂ ಜಡಮತಿಃ ಸಮರ್ಪ್ಯೈಕಂ ಚೇತಃ ಸರಸಿ ಚ ಮುಮಾನಾಥ ಭವತೇ ಸುಖೇನಾವಸ್ಥಾತುಂ ಜನೈಹ ನ ಜಾನಾತಿ ಕಿಮಹೋ ನರತ್ವಂ ದೇವತ್ವಂ ನ ಗವನ ಮೃಗತ್ವಂ ಅಶಕತಾ పశుత్వం కీటత్వం భవతు విహగత్వాది జననం సదా త్వత్పాదాబ్జ స్మరణ పరమానంద లహరే విహారాసక్తం చేత్ హృదయమిహ కిం తేన వపుషా. వటుర్వాగేహీ వాయతిరపి జటీ వా తదితరో నరో వాయః కశ్చిత్ భవతు భవ కిం తేన భవతి యదేయం హృత్ పద్మం యది భవదధీనం పశుపతే తదీయస్త్వం శంభో భవసి భవభారం చ వహసి. గుహాయాం గేహే వా బహిరపి వనే శిఖరే జలే వా వన్హౌ వా వసతు వసతే కిం వద ఫలం సదా యస్యైవాంతః కరణమపి శంభో తవ పదే స్థితం చేద్యోగోసౌ సచ పరమయోగీ సచ సుఖీ. సారే సంసారే నిజ భజన దూరే జడధియా భ్రమంతం మామంధం పరమ కృపయా పాతుముచితం. మదన్యః కో దీనస్తవ కృపణ రక్షాతి నిపుణః త్వదన్యః కో వా మే త్రిజగతి శరణ్యః పశుపతే. ప్రభుస్త్వం దీనానాం ఖలు పరమ బంధుః పశుపతే ప్రముఖ్యోహం తేషామపి కిముత బంధుత్వమనయోః త్వయైవ క్షంతవ్యాః శివ మదపరాధాశ్చ సకలాః ప్రయత్నాత్ కర్తవ్యం మదవనమియం బంధుసరణిహి. ఉపేక్షా నో చేత్ కిం న హరసి భవధ్యాన విముఖాం దురాశా భూయిష్టాం విధిలిపిమశక్తో యది భవాన్. శిరస్తద్వైధాత్రం నన ఖలు సువృత్ పశుపతే కథం వా నిర్యత్నం కరణఖముఖేనైవ లులితం. విరించిర్దీర్ఘాయుర్భవతు భవతా తత్పరశిరశ్చతుష్కం సంరక్ష్యం సఖలు భువి దైన్యం లిఖితవా. విచారః కో వా మాం విశద కృపయా పాతి శివతే. కటాక్ష వ్యాపార స్వయమపి చ దీనావన పరః ఫలాద్వా పుణ్యానాం మయి కరుణయా వా త్వయి విభో. ప్రసన్నేపి స్వామిం భవదమల పాదాబ్జ యుగళం కథం పశ్యేయం మాం స్థగయతి నమః సంభ్రమజుషాం. నిలింపానాం శ్రేణిర్నిజ కనక మాణిక్యమకుటైః త్వమేకో లోకానాం పరమ ఫలదో దివ్య పదవీం. వహంతస్త్వన్మూలాం పునరభిభజంతే హరిముఖాః. కి कियद्वादाक्षिण्यं तव शिवमगाशा च कियते कदा वा मद्रक्षां वहसि करुणापूरितदृशा दुराशा भूयिष्ठे दुरधिपगृहद्वारघटके दुरन्ते संसारे दुरितनिलये दुःखजनके मदायासं किं नव्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिवकृतार्थाः खलु वयम् सदा मोहाटव्याञ्चरति युवतीनां कुचगिरौ नटति आशा शाखा स्वटति छडिति स्वैरमभितः कपालिं भिक्षो मे हृदय कपिमत्यन्त चपलम् दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवस सन्मार्गघटितां स्मरारे मच्चेतस्फुटपटकुटीं प्राप्य विशदां जय स्वामिन् शक्त्या सह शिवगणैः सेवित विभो प्रलोभाद्यैरर्थाहरणपरतन्त्रोधनिगृहे प्रवेशोद्युक्तः सन्भ्रमति बहुधा तस्करपते इमं चेतश्चोरं कथमिह सहे शङ्कर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपा करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगताम् अदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो कदा वा कैलासे कनकमणिसौधे सह गणैर्वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः विभो साम्ब स्वामिन् परमशिव पाहीति निगदन् विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः स्तवैर्ब्रह्मादीनां जय जय वचोभिर्नियमिना गणानां केलीभिर्मदकलमहोक्षस्य ककुदे स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषम् कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलम् गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमलान् अलभ्यां ब्रह्माद्यै भविष्यामि हृदये करस्थेः माद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे शिरस्थे शीतांशौ चरणयुगलस्थेखिल शुभे कमर्थं दास्येहं भवतु भवदर्थं मम मनः सारूप्यं तव पूजने शिव महादेवेति संकीर्तने सामीप्यं शिव भक्ति दुर्यजनता सांगत्य संभाषणे सालोक्यं च चराचरात्मकतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहम् त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो दीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता गन्धे गन्धवहात्मतान्नपचने बहिर्मुखाध्यक्षता पात्रे काञ्चन गर्भतास्ति मयि चेत्पालेन्दुचूडामणे शुश्रूषां करवाणि ते पशुपते स्वामिन् त्रिलोकी गुरु पशूनां पते पश्यन् कुक्षिगतान् चराचरगणान् बाह्यस्थितान् रक्षितुम् सर्वामर्त्यपलायनौषधमतिज्वालाकरं बीकरम् निक्षिप्त तं गरलं गलेन गिलितं नोद्गीर्णमेव त्वया ज्वालोग्रस्सकलामराति भयदक्ष्वेलं कथं वा त्वया दृष्टः किञ्च करे धृतः करतले किं पक्वजम्बूफलम् जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वदा नालं वासकृदेव देव भवतः सेवानतिर्वानुतिः पूजा वा स्मरणं कथा श्रवणमप्यालोकनं मातृशाम् स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भवत्थैर्यं चेदृशमात्मनस्थितिरियं चान्यः कथं लभ्यते। भ्रस्यद्देवगणं त्रसन्मुनिगणं नस्यत् प्रपञ्चं लयम्। पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान्। योगक्षेमधुरन्धरस्य सकलश्रेयः प्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः। सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया। शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम्। भक्तो भक्तिगुणावृते मुदमृता पूर्णे प्रसन्ने मनः कुम्भे। साम्बतवाङ्घ्रिपल्लवयुगं संस्थाप्य संविफलम्। सत्त्वं मन्त्रमुदीरयन् निज शरीरागारशुद्धिं वहन्। पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन्। आम्नायां बुधिमादरेण सुमनः सङ्घाः समुद्यन्मनो मन्धानम्। दृढभक्तिरज्जुसहितं कृत्वा मधित्वा ततः। सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमता। नित्यानन्दसुधां निरन्तररमा सौभाग्यमातन्वते। प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः। सोमः सद्गुणसेवितो मृगधरः पूर्णस्तमो मोचकः। चेतः पुष्करलक्षितो भवति चेदानन्दपाधो निधिः। प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते। धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतम्। क्रोधमदादयो विगलितः काला सुखाविष्कृतः। ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा। मान्ये मानस पुण्डरीक नगरे राजावतंसे स्थिते। यन्त्रेण वचो घटेन कविता कुल्योपकुल्याक्रमैः। आनीतैश्च सदा शिवस्य चरिताम्भोराशि दिव्यामृतैः। हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते। दुर्भिक्षान्मम सेवकस्य भगवन् विश्वेश भीतिः कुतः। विमोचनाय रुचिरैश्वर्याय मृत्युञ्जय। स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने जिह्वा चित्तशिरों गृहस्थनयन श्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्मामेव मामेव चः गाम्भीर्यं परिखापदं घनधृतिः प्राकारः उद्यद्गुणस्तोमशाप्तबलं घनेन्द्रियचयोद्वाराणि देहे स्थितः विद्या वस्तु समृद्धिरित्यखिल सामग्री समेति सदा दुर्गातिप्रिय देव मामकमनो दुर्गे निवासं कुरु मा गच्छस्त्वमितस्ततो गिरिश भोमय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनः कान्तारसीमान्तरे वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादयः तान् हत्वा मृगया विनोदरुचिरं लाभं च सम्प्राप्स्यसि करलग्नमृगः करीन्द्रभङ्गो घनशार्दूलविखण्डनोस्तजन्तुः गिरिशो विशदाकृतिश्च चेतः कुहरे पञ्चमुखोऽस्ति मे कुतोभिः छन्दः शाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनिखेदभेदिनि सुधासारैः फलैर्दीपिते चेतः पक्षिशिखामणित्यज वृथा सञ्चारमन्यैरलम् नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु आकीर्णेन खराजिकान्तिविभवैरुद्यत्सुधा वैभवैः आदौ तेऽपि च पद्मरागललिते हंसव्रजैराश्रिते नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाधाङ्घ्रिसौधान्तरे शम्भुध्यानवसन्तसङ्गिनि हृदारामेघजीर्णच्छदाः स्रस्ता भक्तिलताच्चटा विलसिता पुण्यप्रवालाश्रिताः दीप्यन्ते गुणकोरका जपवचः पुष्पाश्च सत्वासनाः ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयम् स्वच्छं सद्विजसेवितं कलुषहृत् सद्वासनाविष्कृतम् शम्भुध्यानसरोवरं व्रजमनोहं सावतं सस्थिरम् किं क्षुत्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि आनन्दामृतपूरिताहरपदां भोजालवालोद्यता स्थैर्योपघ्नमुपेत्य भक्तिलतिकाशकोपशाखान्विता उच्चैर्मानसकायमानपटले माक्रम्य निष्कल्मषा नित्याभीष्टफलप्रदा भवतु मे सत्कर्म संवर्धिता ಸಂಧ್ಯಾರಂಭ ವಿಜೃಂಭಿತಂ ಶ್ರುತಿಶಿರಸ್ಥಾನಾಂತರಾಧಿಷ್ಠಿತಂ ಸಪ್ರೇಮ ಭ್ರಮರಾಭಿರಾಮ ಸಕೃತ್ ಸದ್ವಾಸನಾಶೋಭಿತಂ ಭೋಗೀಂದ್ರಾಭರಣಂ ಸಮಸ್ತ ಸುಮನಃ ಪೋಚಂ ಗುಣಾವಿಷ್ಕೃತಂ ಸೇವೆಯ ಶ್ರೀಗಿರಿಮಲ್ಲಿಕಾರ್ಜುನ ಮಹಾಲಿಂಗಂ ಶಿವಾಲಿಂಗಿತಂ ಕರಿಮದಗ್ರಾಹೀ ಸ್ಫುರನ್ ಮಾಧವಾಹ್ಲಾದೋ ನಾದಯುತೋ ಮಹಾಸಿತ ವಪುಃ ಪಂಚೇಷುಣಾಚಾದೃತಃ ಸತ್ಪಕ್ಷ ಸುಮನೋವನೇಶು ಸಪುನಃ ಸಾಕ್ಷಾನ್ಮದೀಯೆ ಮನೋರಾಜೀವೇ ಭ್ರಮರಾಧಿಪೋ ವಿಹರತಾಂ ಶ್ರೀಶೈಲವಾಸಿ ವಿಭುಃ ಕಾರುಣ್ಯಾಮೃತವರ್ಷಿಣಂ ಘನ ವಿಪದ್ಗ್ರೀಷ್ಮಚ್ಛಿದಾಕರ್ಮಠಂ ವಿದ್ಯಾಸಸ್ಯ ಫಲೋದಯಾಯ ಸುಮನಃ ಸಂಸೇವ್ಯಮಿಚ್ಛಾಕೃತಿಂ ನೃತ್ಯದ್ಭಕ್ತಮಯೂರಮದ್ರಿನಿಲಯಂ ಚಂಚಚ್ಚಟಾಮಂಡಲಂ ಶಂಭೋ ವಾಂಛತಿ ನೀಲಕಂಧರ ಸದಾ ತ್ವಾಂ ಮೇ ಮನಶ್ಚಾತಕಃ ಆಕಾಶೇನ ಶಿಖೀ ಸಮಸ್ತ ಫಣಿನಾಂ ನೇತ್ರಾಕಲಾಪಿ ನತಾನುಗ್ರಾಹೀ ಪ್ರಣವೋಪದೇಶ ನಿನದೈಃ ಕೇಕೀತಿ ಯೋಗೀಯತೆ ಶ್ಯಾಮಾಂ ಶೈಲಸಮುದ್ಭವಾಂ ಘನರುಚಿಂ ದೃಷ್ಟ್ವಾ ನಟಂತಂ ಮುದಾ ವೇದಾಂತೋಪವನೆ ವಿಹಾರ ರಸಿಕಂ ತಂ ನೀಲಕಂಠಂ ಭಜೇ ಸಂಧ್ಯಾ ಘರ್ಮ ದಿನಾತ್ಯಯೋ ಹರಿಕರಾಘಾತ ಪ್ರಭೂತಾನಕಧ್ವಾನೋ ವಾರಿದಗರ್ಜಿತಂ ದಿವಿಷದಾಂ ದೃಷ್ಟಿಚ್ಛಟಾ ಚಂಚಲ ಭಕ್ತಾನಾಂ ಪರಿತೋಷ ಬಾಷ್ಪ ವಿತತಿರ್ವೃಷ್ಟಿರ್ಮಯೂರೀ ಶಿವಾ ಯಸ್ಮಿನ್ನುಜ್ವಲತಾಂಡವಂ ವಿಜಯತೆ ತಂ ನೀಲಕಂಠಂ ಭಜೇ ಆಧ್ಯಾಯಾಮಿ ತತೇಜಸೆ ಶ್ರುತಿಪದೈರ್ವೇದ್ಯಾಯ ಸಾಧ್ಯಾಯತೆ ವಿದ್ಯಾನಂದಮಯಾತ್ಮನೆ ತ್ರಿಜಗತಃ ಸಂರಕ್ಷಣೋದ್ಯೋಗಿನೆ ಧ್ಯೇಯಾಖಿಲ ಯೋಗಿಭಿಃ ಸುರಗಣೈರ್ಗೇಯಾಯ ಮಾಯಾವಿನೆ ಸಂಯಕ್ತಾಂಡವ ಸಂಭ್ರಮಾಯ ಜಟಿನೆ ಸೇಯಂ ನತಿಶಂಭವೇ ನಿತ್ಯಾಯ ತ್ರಿಗುಣಾತ್ಮನೆ ಪುರಜಿತೆ ಕಾತ್ಯಾಯನೀ ಶ್ರೇಯಸೇ ಸತ್ಯಾಯಾದಿ ಕುಟುಂಬಿನೆ ಮುನಿ ಮನಃ ಪ್ರತ್ಯಕ್ಷ ಚಿಮ್ಮೂರ್ತಯೇ ಮಾಯಾ ಸೃಷ್ಟ ಜಗತ್ರಯಾಯ ಸಕಲಾಂ ನಾಯಾಂತ ಸಂಚಾರಿಣೆ ಸಾಯಂ ತಾಂಡವ ಸಂಭ್ರಮಾಯ ಜಟಿನೆ ಸೇಯಂ ನತಿಶಂಭವೇ ನಿತ್ಯಂ ಸ್ವೋದರ ಪೋಷಣಾಯ ಸಕಲಾನುದ್ದಿಶ್ಯ ವಿತ್ತಾಶಯ ವ್ಯರ್ಥಂ ಪರ್ಯಟನಂ ಕರೋಮಿ ಭವತಃ ಸೇವಾಂ ನ ಜಾನೆ ವಿಭೋ ಮಜ್ಜನ್ಮಾಂತರ ಪುಣ್ಯ ಪಾಕ ಬಲತಸ್ತ್ವ सर्वं शर्वा सर्वातरस्तिष्ठस्येव हितेन वा पशुपते ते रक्षणीयोऽस्म्यहम् एको वारिजबान्धवः क्षितिनभो व्याप्तं तमो मण्डलम् भित्त्वा लोचन गोचरोऽपि भवति त्वं कोटिसूर्यप्रभः वेद्यः किं न भवस्यहो घनतरं कीदृक् भवेन्मत्तमः तत्सर्वं व्यपनीयमे पशुपते साक्षात् प्रसन्नो भव हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् रोधस्तोय हृतः श्रमेण पथि कश्चायान्तरो दृष्टितः भीतस्वस्थ गृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् दीपं संतमसा कुलश्च शिखिनं सीतावृतस्त्वं तथा चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका साध्वीनैज विभुं लताक्षितिरुहं सिन्धुः सरित्वल्लभम् प्राप्नोतीह यथा तथा पशुपते पादारविन्दद्वयम् चेतो वृत्तिरुपेत्यतिष्ठति सदा सा भक्तिरित्युच्यते आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्चादनम् वाचा शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः रुद्राक्षैर्भसितेन देववपुषो रक्षाम् भवद्भावना पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति मार्गावर्तित पादुका पशुपते रङ्गस्य कूर्चायते गण्डूशाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतं सायते वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनम् भूभृत्पर्यटनं नमत्सुरशिरः कोटीरसङ्घर्षणम् कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य गौरीपते मच्चेतो मणिपादुका विहरणं शम्भो सदाङ्गीकुरु वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिका नीराजनं कुर्वते दृष्ट्वा मुक्तिवधूस्तनोतिनिभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितम् तस्मान् मामकरक्षणं पशुपते कर्तव्यमेव त्वया बहुविधपरितोषबाष्पूरस्फुटपुलकाङ्कित चारुभोगभूमिं चिरपदफलकाङ्क्षि सेव्यमानां परमसदाशिवभावनां प्रपद्ये अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीं सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकाम् जडता पशुता कलंकिता कुटिलचरत्वं च नास्ति मयि देवास्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रम् अरहसि रहसि स्वतंत्र बुद्ध्या वरिवसितुं सुलभः प्रसन्नमूर्तिः अगणित फलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति गुणकुञ्चितभावचापयुक्तैः शिवस्मरणबाणगणैरमोघैः निर्जित्य किल्बिशरिपून् विजयी सुधीन्द्रः सानन्दमावहति सुस्थिर राजलक्ष्मी ध्यानाञ्जनेन समवेक्ष्यतमः प्रदेशम् भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिहते शिव ते कृतार्था भूदारता मुदवहत्यदपेक्षया श्रीभूदारयेव किमतः सुमते लभस्व केदारमाकलितमुक्तिमहौषधेन पादारविन्दभजनं परमेश्वरस्य शापाशक्लेश दुर्वासनादि भेदोद्युक्तैर्दिव्य गन्धैरमन्दैः आशाशाटीकस्य पादारविन्दं चेतः पेटीं वासितामेतनोतु कल्याणिनं सरसचित्रगतिं सवेगम् सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् चेतस्तुरङ्गमधिरुह्य चरस्मरारे नेतः समस्तजगतां वृषभाधिरूढा भक्तिर्महेशपदपुष्करमावसन्ति कादम्बिनीव कुरुते परितोषवर्षम् सम्पूरितो भवति यस्य मनस्तटाकः तच्चन्मसस्यमखिलं सफलं च नान्यत् बुद्धिस्थिरा भवितुमीश्वरपादपद्मसक्तावधूर्विरहिणीव सदा स्मरन्ति सद्भावनास्मरणदर्शनकीर्तनादि सम्मोहितैव शिवमन्त्रजपेन विन्ते सदुपचारविधिष्वनुबोधितां सविनयां सुहृदं समुपाश्रितां मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन न वोढवधूमि वा नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः शम्भो तेन कथं कठोरयमराड्वक्षः कवाटक्षतिः अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तयति ये तल्लोचनगोचरं कुरु विभोहस्तेन संवाहये येष्यत्येष जनिं मनोस्य कठिनं तस्मिन्नटानीतिमद्रक्षायै गिरिसीं निकोमलपदन्यासः पुराभ्यासितः नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु सुशिलातलेषु नटनं शम्भो किमर्थं तव कञ्चित्कालमुमा महेश भवतः पादारविन्दार्चनैः कञ्चिध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः कञ्चित् कञ्चिदवेक्षणैश्च नुतिभिः कञ्चित्तशामीदृशीम् यः प्राप्नोति मुदा त्वदर्पितमना जीवन् समुक्तः खलु बाणत्वं वृषभत्वमर्थवपुषा भार्यात्वम् आर्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादिरूपं दधौ त्वत्पादे नयनार्पणं च कृतवान् त्वत् देह भागो हरिः पूज्यात् पूज्यतरः स एव हि न चेत् को वा तदन्योऽधिकः जनन मृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र अजनिमृतरूपं साम्बमीशं भजन्ते यैः परमसौख्यं ते हि धन्या लभन्ते शिव तव परिचर्या सन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये सकल भुवन बन्धो सच्चिदानन्द सिन्धो सदय हृदय गेहे सर्वदा संवसत्वं जलधिमथन दक्षो नैव पाताल भेदे न च वन मृगयायां नैव लुब्धः प्रवीणः अशन कुसुम भूषा वस्त्र मुख्यां सपर्यां कथय कथमहंते कल्पयानींदु मौले पूजा द्रव्य समृद्धयो विरचिता पूजां कथं कुर्महे पक्षित्वं न च वाकिटि त्वमपि न प्राप्तं मया दुर्लभम् जाने मस्तकमङ्घ्रिपल्लवमुमा जाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा अशनं गरलं फणीकलापो वसनं चर्म च वाहनं महोक्षः मम दास्यसि किं किमस्ति शम्भो तव पादाम्बुजभक्तिमेव दे यदा कृताम्भो निधि सेतु बन्धनः करस्थलाथ कृत पर्वताधिपः भवानी ते लङ्घित पद्मसम्भवः तदा शिवार्चास्तव भावनक्षमः नतिभिर्नुतिभिस्त्वमीश पूजा विधिभिः ध्यान समाधिभिर्न तुष्टः धनुषा मुसलेन चाश्मभिर्वा वदते प्रीतिकरं तथा करोमि वचसा चरितं वदामि शम्भोः अहमुद्योगविधासु ते प्रसक्तः मनसाकृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि आद्या विद्या हृद्गता निर्गतासीत् विद्या हृद्या हृद्गता त्वत्प्रसादात् सेवे नित्यं श्रीकरं त्वत्पादाब्जम् भावे मुक्तेर्भाजनं राजमौले दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्य दुःख दुरहंकृति दुर्वचांसि सारं त्वदीय चरितं नितरां पिबन्तम् गौरीश मामिह समुद्धर सत्कटाक्षैः सोमकलाधर मौळौ कोमल घन कंधरे महामहसी स्वामिनी गिरिजानाधे मामक हृदयं निरंतरं रमता सारसनाते नयने तानेव करौ सैव कृतकृत्यः स्मरति अतिमृदुलौ मम चरणौ अतिकठिनं ते मनो भवानीशा इति विचिकित्सां संत्यज शिवकथमासीत् गिरौ तथा प्रवेशः धैर्यांकुशेन निभृतं रभसादाकृष्य भक्तिश्रृंखलया पुरहर चरणाला चिद्यन्त्रैः प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेश मनः करीगरीयान् परिगृह्य नयेन भक्तिरज्वान् परमस्थाणुपदं दृढं नयामु सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्यां उद्यद्भूषा विशेषामुपगत विनयां द्योतमानार्थरेखा कल्याणीं देव गौरी प्रिय मम कविता कन्यकां त्वं गृहाणा इदं ते युक्तं वा परमशिवकारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ कथं शंभो स्वामिन् कथय मम वेद्योऽसि पुरतः कथं शंभो स्वामिन् कथय मम वेद्योऽसि पुरतः स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः स्तुत्यानां गणना प्रसङ्गसमये त्वामग्रगण्यं विदुः माहात्म्याग्रविचारणप्रकरणे धानातुशस्तोमवत् धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः शम्भो भवत्सेवकाः शम्भो भवत्सेवकाः।